ॐ हिरण्यवर्णा हरिणी सुवर्णरजतस्त्रजा चन्द्रां हिरण्मयीं लक्ष्मी जातवेदोम आवह ताम आवह जातवेदो लक्ष्मी मनपगामिनी यस्यां हिरण्यं विन्देयं कामश्वं पुरुषानहं अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीं श्रियं देवीमुपहव्यये श्रीर्मा देवीर्जुषतां कां सोऽस्मितां हिरण्यप्राकारां आर्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीं पद्मे स्थितां पद्मवर्णां तामिहोपहवये श्रियं चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदारां तां पद्मिनीमीशरणमहं प्रपद्ये अलक्ष्मी मे नश्यतां त्वां वृणे आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरांश्च बाह्या अलक्ष्मीः उपैतु मां देवसखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिं ऋद्धिं ददातु मे क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीनाशयाम्यहम् अभूतिम् असमृद्धिं च सर्वानिर्णुद मे गृहात् गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं ईश्वरी सर्वभूतानां तामिहोपहवये श्रियं मनसः काममाकूतिं वाचः सत्यमशीमहि पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः कर्दमेन प्रजाभूता मयि सम्भव कर्दम श्रियं वासय मे कुले मातरं पद्ममालिनीम् आपः सृजन्त स्निग्धानि चिक्लीतवस मे गृहे निच देवी मातरं श्रियं वासय मे कुले आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीं चन्द्रां हिरण्मयीं लक्ष्मी जातवेदोम आवह आर्द्रां यष्करिणी यष्टिं सुवर्णा हेममालिनीं सूर्या हिरण्मयीं लक्ष्मी जातवेदोम आवह ताम आवह जातवेदो लक्ष्मीं मनपगामिनीं यस्यां हिरण्यं प्रभूतं गावो दास्यो अश्वान् विन्देयं पुरुषानहं यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् सूक्तं पञ्चदशर्चञ्च श्रीकामः सततं जपेत्।